एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभायाम् अस्यैव भाद्रमासस्य दशमे दिवसे प्रधानमन्त्रिणा बालेन्द्र शाहेन सह सांसदानां प्रश्नोत्तर कार्यक्रमो निश्चितोऽस्ति। सभामुख डोलप्रसाद अर्याल प्रतिनिधि सभायाः स्थनोपवेशे प्रधानमन्त्रिणा शाहेन सह प्रतिनिधि सभायां प्रश्नोत्तर कार्यक्रमो निर्धारितोऽस्ति इति अज्ञापयत्। तत्पूर्वम् उपवेशे सांसदै विभिन्नेषु सामयिक विषयेषु प्रधानमन्त्रिणा संसदीय व्यक्तायाः अभिव्यक्तिर्विषये सर्वकारस्य कार्यशैली शैल्यांश उत्थापितानां प्रश्नानां सम्बोधनं सम्भूतं नास्तीति उक्त्वा ध्यानाकर्षणस्य पश्चात् सभामुखेन अर्यालेन प्रधानमन्त्रिणे अनिवार्य निर्देशनं प्रदत्तमासीत्। प्रतिनिधि सभायाः स्थनोपवेशेन खनि खनिज पदार्थ सम्बद्धमेतद् विक्रमवश्यं विधेयकमाधृत्य विमर्शनीयमित्युक्त्वा प्रस्तुतः प्रस्तावः बहुमतेन स्वीकृतो वर्तते। सभायाः स्थनोपवेशे महिला बालबालिका लैंगिक यौनिक अल्पसंख्यक सामाजिक सुरक्षा मन्त्री सीतावादी बालबालिका सम्बद्धमेतद् विक्रमवर्षीयं प्रथम संशोधन विधेयकं प्रास्तौत्। एवमेव उपवेशे महिला बालबालिका मन्त्रिणा वादी इत्यनया मानव क्रय विक्रयण नयना नयन नियन्त्रण सम्बद्धमेतद् विक्रमवर्षीयं प्रथम संशोधन विधेयकम् अधिकृत्य विचारो भवतु इति उक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। तत्पूर्वम् उपवेशे सांसदै नैरन्तर्यस्य वृष्टिः देशस्य विभिन्न जनपदेषु जलविप्लव भूस्खलनानां कारणेन सम्भूतायाः जनधनयोः क्षतेः सहयोगोद्धारयोः पाचनेन्धनस्य अभावस्य च विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितमासीत्। प्रतिनिधिसभायाः अपर उपवेशः अद्य पूर्वाह्नस्य एकादशवादने पुनः वसति। राष्ट्रियसभायाः स्थनोपवेशे एतद् विक्रमवर्षीयं संक्रामक पशुरोग नियन्त्रण सम्बद्धं विधेयकम् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे कृषि वन पर्यावरण मन्त्रिणा गीता चौधरी इत्यनया प्रस्तावोऽयं प्रस्तुतः आसीत्। उपवेशे सांसदानां प्रश्नानाम् उत्तरं प्रयच्छन् युवश्रम वृत्त्युपार्जन मन्त्री रामजी यादवः यूनां पलायनं रोद्धुं स्वदेशे एव वृत्त्युपार्जनानाम् अवसरान् स्रष्टुं नवीन वृत्त्युपार्जन नीतेः अधिनियमस्य च निर्माण प्रक्रिया अग्रेसारिता अस्ति इति अगदत्। तत्पूर्वं सांसदः आराष्ट्रं जलप्लवे भूस्खलने च निपत्य बहवो जनाः मृताः आहताश्च वर्तन्त इति चर्चयन्तः स्थानीयस्तरेषु एव स्रोतसाधनानि व्यवस्थाप्य प्रभावितानां पीडितानां च जनानाम् उद्धाराय सहयोगाय च सर्वकार समक्षं याचितवन्तः। राष्ट्रियसभायाः अपरोपवेशः श्वः बुधवासरे सपादैकवादने वस्ता। प्रधानमन्त्रिणा बालेन्द्र शाहेन सह गण्डकी प्रदेशस्य मुख्यमन्त्रिणा सुरेन्द्र राज पाण्डेभिदेन ह्यो मेलवार्ता विहिता अस्ति। सीमाप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये सम्भूते मेलने अनयोर्मध्ये आन्तर सर्वकाराणां सहकार्यस्य समन्वयस्य च विषयेषु विमृष्टमस्ति इति मुख्यमन्त्रिण पाण्डेभिदस्य संचार संयोजक नरहरि सापकोटा अज्ञापयत्। तदवसरे मुख्यमन्त्रिणा पाण्डेभिदेन प्रदेश सर्वकारस्य पक्षत विभिन्नेषु विषयेषु संघीय सर्वकारस्य ध्यानाकर्षणं विहितमासीत्। बागमती प्रदेशस्य प्रमुखेण दीपक प्रसाद देवकोटाभिदेन बागमती प्रदेशे परश्व बृहस्पतिवासरे सायं चतुर्वादन पर्यन्तं स्वत्वं प्रस्तोतुम् आहूतमस्ति। प्रदेश प्रमुखेण देवकोटाभिदेन नेपालस्य संविधानस्य अनुसारेण प्रतिनिधिसभायां प्रतिनिधित्वं कुर्वतो द्वयोः तदधिकानां वा दलानां समर्थनेन बहुमतं लब्धुं सफलं प्रदेशसभा सदस्य मुख्यमन्त्रीपदे नियुक्त्यर्थं स्वत्वं प्रस्तुतुम् आहूतोऽस्ति। प्रदेशस्य मुख्यमन्त्रिणा इन्द्रबहादुर वानियाभिदेन ह्य एव स्वपदात्यागपत्रं दत्तमासीत्। नवीन सर्वकारस्य संघटनाय आवश्यक बहुमतस्य अप्राप्तेः अवस्थायाः सर्जनस्य अनन्तरं प्रदेशसभायाः उपवेशे त्यागपत्रस्य घोषणां विधाय प्रदेश प्रमुखस्य समक्षं त्यागपत्रं दत्तमासीत्। गत श्रावण मासस्य षष्ठे दिवसे नेकपा एमाले दलेन प्रदेश सर्वकाराय प्रदत्तस्य समर्थनस्य प्रत्यावर्तनानन्तरं मुख्यमन्त्रिण वानियाभिदस्य सर्वकारः अल्पमति आसीत्। लुम्बिनी प्रदेशस्य मुख्यमन्त्रिणा चेतनारायण आचार्येण प्रदेशसभायाः उपवेशे विश्वासस्य मतं प्राप्तमस्ति। ह्य उपविष्टे प्रदेशसभायाः उपवेशे मुख्यमन्त्रिणा आचार्येण प्रस्तुतस्य विश्वासस्य मत सम्बद्ध प्रस्तावस्य पक्षे 45 मतानि, विपक्षे च 27 मतानि च प्राप्तानि सन्ति। मुख्यमन्त्रिणम् आचार्यम् इत्यमुम् नेकपा एमाले दलेन, नेपाली कम्युनिष्ट दलेन, राष्ट्रिय जनमोर्चा दलेन, जनता समाजवादी पार्टी इति दलेन च मतानि प्रदत्तानि आसन्। विश्वासस्य मतस्य पक्षे प्राप्तानि 45 मतानि बहुमतस्य कृते पर्याप्तानि सन्तीत्यतः मुख्यमन्त्रिणा आचार्येण विश्वासस्य मतं प्राप्तमस्तीति सभामुखः तुलाराम घर्तीमगरः उदघोषयत्। नेकपा एमाले दलस्य, नेपाली कम्युनिष्ट दलस्य च मध्ये प्रदेश सर्वकारस्य संचालनाय सम्भूतायाः त्रिसूत्रात्मक सहमतेरनन्तरं कोशी प्रदेश सर्वकारे नेकपा दलं सहभागी सम्भूतमस्ति। कोशी प्रदेशस्य मुख्यमन्त्रिणा हिक्मत कुमार कार्किणा ह्यो मन्त्रिमण्डलं विस्तार्य नवनियुक्तानां मन्त्रिणां कार्यविभाजनं विहितमस्ति। नेकपा दलेन सर्वकारे चत्वारो मन्त्रिणः एक राज्यमन्त्री च प्रेषितः वर्तन्ते। सर्वोच्च न्यायालयेन जनास्था साप्ताहिक पत्रिकायाः प्रधान सम्पादकं किशोर श्रेष्ठं प्रहरी नियन्त्रणाद् उन्मोक्तुम् आदेशः प्रदत्तोऽस्ति। न्यायाधीशस्य नः कुलसुवेदिनः बाबुराम ढकालस्य च न्यायपीठेन ह्य श्रवणं विधाय प्रहरी नियन्त्रणे कारागारे संस्थापनस्य तथा कथं विधमपि कारणस्य अदर्शनात् जनास्था पत्रिकायाः प्रधान सम्पादकं श्रेष्ठं नियन्त्रणादुन्मुक्तुम् विधातुम् आदेशः प्रदत्तो वर्तते। नेपाली भाषायाः नेवा भाषायाश्च वरिष्ठ कवि दुर्गालाल श्रेष्ठ 91 वर्षाणां वयसि दिवंगतो वर्तते। कवेः श्रेष्ठस्य ह्य स्वस्यैव काष्ठमण्डपस्य बुढा नीलकण्ठवर्तिनी निवासे निधनं सम्भूतमस्ति। कवेः श्रेष्ठस्य अद्य शोभा भगवती स्थाने दाह संस्कारो भविष्यति इति तदीय परिवारजनैः ज्ञापितं वर्तते। कविना श्रेष्ठेन षष्ट्युत्तर 2000 विक्रम वर्षे नेपाल भाषा परिषदा प्रदीयमानः जनकवि इत्युपा अधिगतः आसीत् इति समाचारः।